इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झाः। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य गुजरातस्य एकदिवसीय यात्रायां भविष्यति। असौ समुद्र से समृद्धि इति समुद्रात् समृद्धिः इत्यस्मिन् कार्यक्रमे सहभागं करिष्यति। अनन्तरं सः भावनगरे 234,000 कोट्यधिकरूप्यकाणाम् अनेकासां विकास परियोजनानाम् उद्घाटनं शिलान्यासं च करिष्यति। प्रधानमन्त्री अस्मिन् अवसरे एकां जनसभाम् अपि सम्बोधयिष्यति। स्वयात्रावधौ श्रीमोदी लोथलस्थं राष्ट्रिय सामुद्रिक रिक्थ परिसरम् अपि गमिष्यति। सः तस्य प्रगतेः समीक्षाम् अपि करिष्यति। सः विशालस्य धोलेरा औद्योगिक नगरस्य वैमानिक निरीक्षणम् अपि करिष्यति। आतंकवादस्य सर्वप्रकाराणाम् अभिव्यक्तयः निवारणाय प्रयासान् सुदृढं तीव्रतरं च कर्तुं भारतं विश्वं समाह्वयत्। भारतेन उक्तं यत् आतंकवादिनां पाकिस्तानस्य सैन्यस्य च मध्ये सम्बन्धस्य विषये सर्वे जानन्ति। नवदिल्ल्यां वार्ताहरान् सम्बोधयन् पाकिस्तानस्य आतंकवादि संघटनानां नवीनतम दृश्य श्रव्य प्रसंगे प्रश्नस्य उत्तरे विदेश मन्त्रालयस्य प्रवक्ता रणधीर जायसवालः अवदत् यत् एतादृश्यः घटनाः इतोप्यधिकं भयं जनयन्ति। श्री जायसवालः उक्तवान् यत् भारतं नेपालदेशे सुशीला कार्की इत्यस्याः नेतृत्वे नूतनस्य अन्तरिम शासनस्य निर्माणस्य स्वागतं करोति।
We all have to fight cross-border terrorism and terrorism in each and every document that comes out of a multilateral arena, whether it is BRICS or SCO or anywhere else. You see the kind of support that is there to fight international terrorism, and in fact there is reference to fighting cross-border terrorism as well. So we call upon the world that we have to strengthen and intensify our efforts to deal with terrorism in all its forms and manifestations.
प्रधानमन्त्रिणा नरेन्द्र मोदिना ग्रीस देशस्य प्रधानमन्त्रिणा किरियाकोस मित्सोताकिसेना सह दूरभाष माध्यमेन संवादः अनुष्ठितः। संवादावसरे उभौ नेतारौ भारत ग्रीस सामरिक सहभागित्वार्थं क्षेत्रीय जनानां समृद्ध्यै च स्वप्रतिबद्धतां पुनः उदीरितवन्तौ। उभाभ्यां नेतृभ्यां व्यापार निवेश प्राविधिकी नौवहन रक्षा सुरक्षा सम्पर्क जनसम्पर्कादि क्षेत्रेषु द्वैपाक्षिकेषु च सम्बन्धेषु विकासः अभिनन्दितः। उभौ नेतारौ पारस्परिक हितानां क्षेत्रीय वैश्विक विषयाणां च विषये अपि विचारणां कृतवन्तौ। एतदतिरिच्य ग्रीस प्रधानमन्त्री 26,000 वर्षे भारते आयोजयिष्यमाणस्य AI इम्पैक्ट इत्येतस्य कृत्रिम बुद्धिमत्ता प्रभाव विषयकस्य शिखर सम्मेलनस्य सफलतायै समर्थनं कृतवान्। केन्द्रीय सूचना प्राविधिकी मन्त्री अश्विनी वैष्णवः अवदत् यत् प्रधानमन्त्रिणा नरेन्द्र मोदिना तन्त्रज्ञानं भारतस्य बृहत्तमं समाह्वानरूपेण परिवर्तितम्। सः अवदत् यत् अधुना सामान्य विक्रेतारः कार्पोरेट कार्यकारिणः एव UPI देय व्यवस्थाम् उपयुञ्जते। राष्ट्रिय दैनिक पत्रस्य एकस्मिन् लेखे श्रीवैष्णवः अधो रेखांकितवान् यत् तन्त्रज्ञानस्य कोऽपि पदानुक्रमः न भवति। अन्ते क्रीडावार्तासु, एशिया चषक क्रिकेट प्रतिस्पर्धायाम् अबुधाव्याः शेख जायद क्रीडांगणे गतरात्रौ अवर्गीये निर्णायके द्वन्द्वे भारतेन ओमान दलम् 21 धावनांकैः पराजितम्। अद्य आरम्भिके सुपर फोर स्तरीये द्वन्द्वे श्रीलंका बांग्लादेशो स्पर्धिष्यतः। एषा स्पर्धा रात्रौ 8 आरप्स्यते। भारत पाकिस्तानयोः द्वन्द्वं श्वः भविष्यति। अपरतः महिलानां क्रिकेट क्रीडा मालिकायाम् अद्य दिल्ल्यां तृतीये निर्णायके च द्वन्द्वे भारतम् ऑस्ट्रेलिया दलेन सह स्पर्धिष्यते। एषा स्पर्धा दिने 12 आरप्स्यते। इति वार्ताः।